अथाष्टमोऽध्याय अर्जुनायुवाच किं तद्ब्रह्मा किमध्यात्मं किं कर्म पुरुषोत्तमं अधिभूतं च किं प्रोक्त अधिदैवं किमुच्यते अधियज्ञः कथं कोत्र देहेस्मिन् मधुसूदन प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः भगवानुवाच अक्षरं ब्रह्मपरमं स्वभावोऽध्यात्ममुच्यते भूतभावोद्भवकरो विसर्गः कर्मसङ्गितः अधिभूतं सर्वभाव पुरुषश्चाधिदैवतम् अधिजज्ञोऽहमेवात्र देहे देहभृतां वरम् अन्तकाले च मामेव स्मरणमुक्त्वा करे वरं यः प्रयाति शमदभावं याति नास्त्यत्र संशयः यं यं वापि स्मरणभावं तजत्तन्ते कलेवरं तं तमेवैति कौन्तेय सदा तदभावभावितः तस्मात् सर्वेषु कालेषु मामनुस्मरयुद्ध च मज्जर्पितमनोबुद्धि मामेवैष्यस्य संशयम् अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यां जाति पार्थान् चिन्तयन् कविं पुराणमनुशासितार मनोरण्यां समनुस्मरेदय सर्वस्य धातार मचिन्तरूप मादित्यवर्णं तमसः परस्तां प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव भ्रुवोर्मध्ये प्राण मावेश सम्माग शतं परं पुरुष रूपैति दिव्यम् यदक्षरं वेदविदो वदन्ति विशन्ति यदयतयो वीतरागः यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनोहृदि निरुद्ध च मूर्ध्न्या ध्यायात्मनः प्राण मा स्थितो योगधारणाम् ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्सरन् यः प्रयाति त्वजन् देहं स्वजाति परमां गतिम् अनन्नचेतः सततं यो मां स्मरति नित्यशः तस्याहं सुलभः पार्थ नित्यजुक्तस्य योगिनः मामुपेत्त पुनर्जनमां दुःखालयमशाश्वतं नाप्नुवन्ति महात्मानः संसिद्धिं परमां गतः अब्रह्मभुवनान् लोकः पुनरावर्तिनोऽर्जुन मामुपेत्त दुःखोऽन्तेय पुनर्जन्म न विद्यते सहस्रयुगपर्यन्त महर्यद्ब्रह्मणो विदो रात्रियुगसहस्रान्तं देहुरात्रविदूयनः अव्यक्त्याद्वक्तयः सर्वा प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसङ्गके भूतग्रामः स एव मायं भूत्वा भूत्वा प्रलीयते रात्र्यागमे वशपार्थ प्रभवत्यहरागमे परस्तस्मात्तु भावुन्यो वक्तो वक्त्यात् सनातनः यः स सर्वेषु भूतेषु न सत्सु न विनश्यति अवक्तुक्षर इत्युक्त स्तमाहुः परमां गतिं यं प्राप्य न निवर्तन्ते तद्धाम परमं मम पुरुषः स परपार्थ भक्त्या लब्धस्तनन्नया जस्यान्तस्थानि भूतानि येन सर्वमिदं ततं यत्र काले त्वनावृत्ति मा वृत्तिञ्चैव योगिना प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ अग्निर्ज्योतिरः शुक्ल षण्मासा उत्तरायणं तत्र प्रयाता गच्छन्ति ब्रह्मा ब्रह्मविदूयन धूमरात्रिस्तथा कृष्ण षण्मासा दक्षिणायनं तत्र चन्द्रमसंज्योतिर्योगी प्राप निवर्तते शुक्लकृष्णे गतिज्येते जगतः शाश्वती मते एकया जत्वनावृत्ति मन्नया वर्तते पुनः नैते श्रुति पार्थ जानन् योगी मुच्छति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुनम् वेदेषु यज्ञेषु तपस्सु चैव दानेषु जतपूर्ण फलं प्रदिष्टम् पत्तेति तत् सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् इति श्रीमहाभारते शतसाहस्रं संहितायं वैयासिक्यां भीष्मपर्वणिः श्रीमद्भगवद्गीतासूपनिषदसु यो ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरा ब्रह्मयोगो नाम अष्टमोऽध्यायः।